एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। नेकपा एमाले दलस्य अध्यक्षः केपी शर्मा ओली प्रधानमन्त्री पदे नियुक्तोऽस्ति। राष्ट्रपतिः रामचन्द्र पौडेलः अध्यक्षम् ओलिनम् नेपालस्य संविधानस्य षट्सप्ततितमायाः धारायाः द्वितीयोपधारायाः अनुसारेण ह्यः प्रधानमन्त्री पदे नियुक्तवान् इति राष्ट्रपतेः कार्यालयेन प्रकाशितायाम् विज्ञप्तौ उल्लिखितमस्ति। प्रतिनिधिसभायाः विपुलतमस्य नेपाली कांग्रेस दलस्य समर्थनेन नेकपा एमाले दलस्य अध्यक्षः ओली पुनः प्रधानमन्त्री पदे नियुक्तो वर्तते। प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन प्रतिनिधिसभायाः शुक्रवासरस्य उपवेशे प्रस्तुतस्य विश्वासमतग्रहणस्य प्रस्तावस्य अपारिति भवनानन्तरं राष्ट्रपतिना रामचन्द्र पौडेलेन नेपालस्य संविधानस्य षट्सप्ततितम्याः धारायाः द्वितीयोपधारायाः अनुसारेण प्रतिनिधिसभायाः द्वयोः द्वयधिकानाम् दलानाम् समर्थनेन प्रधानमन्त्री पदस्य कृते स्वत्वम् प्रस्तोतुम् ह्यः सायम् पञ्चवादन पारन्तिकः समयः निर्धारितः आसीत्। राष्ट्रपति कार्यालयात् नूतन प्रधानमन्त्री पदे नियुक्ते स्वत्वस्य प्रस्तुते सूचनायाः प्रकाशनस्य अनुपदमेव नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवाभिदेन नेकपा एमाले दलस्य अध्यक्षेण केपी शर्मा ओलिना च दलनेतुः रूपेण बहुमत सदस्यानाम् हस्ताक्षरैसहितम् अध्यक्षम् ओलिनम् प्रधानमन्त्री पदे नियोक्तुम् शुक्रवासरे एव स्वत्वम् प्रस्तुतमासीत्। प्रधानमन्त्रिणः ओलिनः शपथग्रहणम् अद्य प्रातः एकादशवादने भविष्यति इति राष्ट्रपतेः कार्यालयेन ज्ञापितम् वर्तते। अत्रान्तरे नवनियुक्तेन प्रधानमन्त्रिणा ओलिना सर्वेभ्यो धन्यवादः प्रदत्तः सन्ति। प्रधानमन्त्री पदे नियुक्तेरनन्तरं प्रधानमन्त्री ओली सामाजिक सञ्जालस्य माध्यमेन सर्वेभ्य धन्यवादान् व्यक्तवान् अस्ति। ओलीले देशस्य प्रमुख राजनीतिक दलद्वयस्य नेकपा एमाले नेपाली कांग्रेस दलयोः प्रस्तावे आसन्न द्वि तृतीयांशस्य बहुमतस्य सांसदानां समर्थनेन संघटयिष्यमाणस्य सर्वकारस्य नेतृत्वस्य अवसरः प्राप्तो वर्तते। नेकपा एमाले दलस्य एकसप्तत्युत्तर द्विसहस्रतम विक्रम वर्षस्य प्रथम दिवसे सम्पन्ने नवम राष्ट्रिय महाधिवेशने अध्यक्ष पदे निर्वाचित ओली स्पष्ट वक्तुः स्थिर वचनोपस्थापकस्य रूपेण परिचित नेता अस्ति। नेपालस्य वर्तमान संविधानस्य क्रियान्वयनस्य पश्चात् द्वासप्तत्युत्तर द्विसहस्रतम विक्रम वर्षस्य आश्विन मासस्य चतुर्विंशे दिवसीय अध्यक्ष ओली प्रथमवारं देशस्य प्रधानमन्त्री सम्भूतः आसीत्। तथैव चतुस्सप्तत्युत्तर द्विसहस्रतम विक्रम वर्षे नेकपा माओवादी केन्द्रस्य समर्थनेन चतुस्सप्तत्युत्तर द्विसहस्रतम विक्रम वर्षस्य फाल्गुन मासस्य तृतीय दिवसे द्वितीयवारं अष्टासप्तत्युत्तर द्विसहस्रतम विक्रम वर्षस्य त्रिंशे दिवसे तृतीय बारंच प्रधानमन्त्री सम्भूत आसीत्। पञ्चसप्तत्युत्तर द्विसहस्रतम विक्रम वर्षस्य ज्येष्ठ मासस्य तृतीय दिवसे नेकपा एमाले माओवादी केन्द्रयोः एकतायाः पश्चात् ओली नेकपा दलस्य पक्षतः अपि प्रधानमन्त्री आसीत्। दलाभ्यन्तरस्य विवादस्य कारणेन तदानीम् ओली नेतृत्वस्य सर्वकारः अल्पमते आसीत्। मोहन प्रसाद मधुमाया पित्रोः सुपुत्रस्य रूपेण लब्धजन्मा प्रधानमन्त्री ओली लोकतन्त्रस्य कृते दीर्घकालिक संघर्षम् भूयो भूय कठोर यातनां च भुक्तवताम् सीमित नेतृषु वर्तते। अद्य दिवा एकवादनाय निर्धारितः प्रतिनिधिसभायाः उपवेशः अपराह्नस्य चतुर्वादनाय सारितो वर्तते। अद्य दिवा एकवादनाय निर्धारितः उपवेशः विशेष कारणेन अपराह्नस्य चतुर्वादनाय निर्धारितोऽस्ति इति संघीय संसद सचिवालयेन ह्यः प्रकाशितायां सूचनायां ज्ञापितम् वर्तते। एवमेव अद्य प्रातः एकादशवादनाय निर्धारितः राष्ट्रियसभायाः उपवेशः सपादत्रिवादनाय समयान्तरितोऽस्ति इति संघीय संसद सचिवालय महासचिवेन पद्मप्रसाद पाण्डेयेन प्रकाशितायां सूचनायाम् उल्लिखितम् वर्तते। प्रधान न्यायाधीशस्य विश्वम्भर प्रसाद श्रेष्ठस्य समक्षम् नेपाल बार एसोसिएशन संघेन एतद्विक्रम वर्षीयस्य काष्ठमण्डप घोषणापत्रस्य विषये ध्यानाकर्षणं विहितमस्ति। संघस्य अध्यक्षेण गोपालकृष्ण घिमिरेभिदेन काष्ठमण्डप घोषणापत्रस्य क्रियान्वयनाय प्रधान न्यायाधीशस्य श्रेष्ठस्य ध्यानाकर्षणं विहितम्। तदवसरे प्रधान न्यायाधीश श्रेष्ठः घोषणापत्रस्य क्रियान्वयनाय कार्यं विधीयमानमस्ति, संघेन प्रस्तुतायाः याचनायाः विषये आत्मनः गभीरता अस्ति इति च प्रावोचत्। मधेश प्रदेश सभाया उपवेशन आगामिन आर्थिक वर्षस्य आय व्ययकं सर्वसम्मत्या पारिति कृतमस्ति। प्रदेश सभाया ह्यस्तनोपवेशे विनियोजन विधेयकम् आधृत्य विहिते मन्त्रालयगत विमर्शने मन्त्रिभिः उत्तर प्रदानानन्तरं मुख्यमन्त्रिणा सतीश कुमार सिंहेन आय व्ययकस्य पारितीकरणाय प्रस्तुत प्रस्ताव सर्वसम्मत्या पारिति कृत आसीत्। विनियोजन विधेयकस्य विपक्षे केनापि सांसदेन मतं न व्यक्तम् इत्यतः आयव्ययकं सर्वसम्मत्या पारितमिति सभामुख रामचन्द्र मण्डलः उदघोषयत्। गत शुक्रवासरे भरतपुर महानगरपालिकायाः सिमलताल स्थाने भूस्खलने निपत्य त्रिशूली नद्यां बसयानद्वये निपतिते सति दुर्घटनायाः पश्चात् प्राप्तानां पञ्चानां शवानां सत्यापनं सम्भूतं वर्तते। चितवन जनपदस्य भरतपुर महानगरपालिकायाः अष्टाविंशस्य वडा क्षेत्रस्य गोलाघाट स्थाने नवलपुरस्य गैडाकोट स्थाने च प्राप्तं शवद्वयं भारतीय नागरिकयोः वर्तते इति पुष्टीभूतमस्ति। चितवन जनपद प्रशासन कार्यालयस्य अनुसारेण गोलाघाट स्थाने प्राप्त शव भारतस्य बिहार राज्यस्य सप्तत्रिंशत् वर्षीयस्य जयप्रकाश ठाकुरस्य अस्ति। बेतिया क्षेत्रस्य मझिलिया स्थानस्य त्रिंशत् वर्षीयस्य सजाद अंसारी इत्यस्य गैडाकोट नगरपालिकायां प्राप्त शव वर्तते। दुर्घटनायां पञ्चषष्टि जना विलुप्ता आसन्। अधुनावधि पञ्चानां शवानां सत्यापनं सम्भूतं वर्तते। अन्येषाम् अन्वेषण कार्यं विधीयमानं वर्तते। अत्रान्तरे गृह सचिव एकनारायण अर्याल त्रिशूली नद्यां विलुप्तयो बसयानयो यात्रिणां च अन्वेषणाय जल विप्लव युते जलेपि अन्वेषण सामर्थ्य युतं प्रविधिं विदेशात् आनेतुं प्रयास विधीयमानोऽस्ति इति सूचयति। गृह सचिव अर्याल अन्वेषणाय सम्प्रति सर्वकारेण प्रविधिना सह पञ्चशतं सुरक्षाकर्मिण जल विप्लव निपुणाश्च जना परिचालिता सन्ति इति अज्ञापयत्। स्याङ्जा जनपदे ह्य कुपे निमज्य द्वौ जनौ मृतौ स्तः। पुतली बजार नगरपालिकायाः चतुर्थवडा क्षेत्रवर्तिनि राजकोषद्वारा स्थाने कुपे निमज्य स्थानीयस्य नरेन्द्र थापा इत्यस्य द्वय पुत्र्यौ मृते इति प्रहरिणा ज्ञापितं वर्तते।